इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। आदौ मुख्य वार्ताः। झारखण्ड राज्यस्य विभिन्नेषु भागेषु मतदानं शान्तिपूर्वकं सञ्जातम्। दशराज्याणां वायनाडस्य च आहत्य 31 विधानसभा आसनेषु उपनिर्वाचनार्थं मतदानम् अभवत्। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य बिहारस्य दरभंगातः विविध विकासात्मक परियोजनाभिः सह देशस्य विभिन्न रेलवे स्थानकेषु 18 प्रधानमन्त्री भारतीय जन औषधि केन्द्राणां समर्पणं कृतवान्। महाराष्ट्रे मतदातॄणां समर्थनं प्राप्तुं विभिन्नाः राजनैतिकदलाः तीव्र प्रयत्नशीलाः सन्ति। राष्ट्रपतिः विकसित भारतस्य लक्ष्यं प्राप्तुं ग्रामविकासे बलं दत्तवती। भारतस्य सर्वोच्च न्यायालयेन निर्णयः कृतः यत् कार्यपालिका व्यक्तीनां सम्पत्तिं ध्वंसं कृत्वा अपराध निर्धारणे न्यायपालिकारूपेण कार्यं कर्तुं नैव शक्नोति। अपि च बैडमिंटन क्रीडायां पीवी सिंधुः जापान देशे कुमामोटो मास्टर्स इति प्रतियोगितायां महिलानां एकल पक्षस्य 16 चक्रे प्रविष्टवती। अथ वार्ताः विस्तरेण। झारखण्ड राज्यस्य विभिन्नेषु भागेषु मतदानं शान्तिपूर्वकं सञ्जातम्। प्रथमचरणस्य विधानसभा निर्वाचनस्य कठिन सुरक्षाव्यवस्थायाः मध्यम् अद्य मतदानं पूर्णम् अभवत्। अस्मिन् चरणे 15 जनपदेषु 43 आसनेभ्यः मतदानं जातम्। मतदानं प्रातः 7 आरब्धं, यत्र 31 आसनानां 50+900 संवेदनशील मतदानकेन्द्राणि विहाय अन्येषु भागेषु सायं 4 मतदानं सम्पन्नं जातम्। दशराज्याणां वायनाडस्य च आहत्य 31 विधानसभा आसनेषु उपनिर्वाचनार्थं मतदानं अभवत्। एतेषु राजस्थानस्य 7, पश्चिमबंगस्य 6, असमस्य 5, बिहारस्य 4, कर्नाटकस्य 3, मध्यप्रदेशस्य 2 आसनानि च सन्ति। एतदतिरिक्तं केरल, छत्तीसगढ, गुजरात, मेघालय नगरेषु एकैकं विधानसभा आसने उपनिर्वाचनानि अपि अभवन्। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य देशस्य विभिन्न रेलवे स्थानकेषु 18 प्रधानमन्त्री भारतीय जन औषधि केन्द्राणां समर्पणं कृतवान्। मोदी महोदयेन एतेषां केन्द्राणाम् उद्घाटनं बिहारस्य दरभंगातः 12,000 कोटिरूप्यकेभ्योऽपि अधिक मूल्यानाम् अन्य विकासात्मक परियोजनाभिः सह दृश्य सम्मेलनद्वारा कृतम्। एतेषु केन्द्रेषु यात्रिकाणां कृते रेल स्थानकेषु प्रमूल्य औषधानाम् उपलब्धता सुनिश्चिता भविष्यति। अस्मिन् अवसरे प्रधानमन्त्री मोदी अवदत् यत् तस्य सर्वकारस्य मुख्यं ध्यानं देशे समग्र स्वास्थ्य सेवासु वर्तते। मोदी महोदयः अभवत् यत् अस्माकं 5 केन्द्रबिन्दवः सन्ति, यत्र रोगनिवारणं, रोगानां मितेन मूल्येन परीक्षणं, चिकित्सायां प्रौद्योगिक्याः उपयोगः, सामान्यजनानां कल्याणाय उत्तम स्वास्थ्य सेवा प्रदानं च सन्ति।
हमारा पहला फोकस बीमारी से बचाव पर है, दूसरा फोकस बीमारी की सही तरीके से जांच पर है, तीसरा फोकस है लोगों को मुफ्त और सस्ता इलाज मिले और सस्ती दवाएं मिले, हमारा चौथा फोकस है छोटे शहरों में भी इलाज की बेहतरीन सुविधाएं पहुंचाना, देश में डॉक्टरों की कमी को दूर करना, और हमारा पांचवा फोकस है स्वास्थ्य सेवाओं में टेक्नोलॉजी का विस्तार करना।
प्रधानमन्त्रिणा उक्तं यत् आगामिषु 5 वैद्यकीय महाविद्यालयेषु 75,000 नवीन चिकित्सासनानि योजितानि भविष्यन्ति। सः अवदत् यत् हिन्दीभाषायाम् अन्यासु च भारतीय भाषासु चिकित्साशिक्षां प्रदातुं सर्वकारेण निर्णयः कृतः।
हमारी सरकार ने एक और बड़ा निर्णय लिया है, हम हिंदी और दूसरी भारतीय भाषाओं में भी मेडिकल की पढ़ाई का विकल्प दे रहे हैं। मकसद यही है कि गरीब, दलित, पिछड़े, आदिवासी परिवार की संतान भी डॉक्टर बन सके।
श्रीमोदी अवदत् यत् आर्थिकदृष्ट्या दुर्बलवर्गाणां कृते देशे 50,000+ आयुष्मान् आरोग्यमन्दिराणि उद्घाटितानि सन्ति। प्रधानमन्त्रिणा उक्तं यत् उत्तमजीवनशैल्याः प्रवर्धनेन सह स्वास्थ्यसेवासु दृढीकरणाय योगम् आयुषं पोषणञ्च एकीकृतम् अस्ति। सः अवदत् यत् आयुष्मान् भारतस्य प्रधानमन्त्री जनौषधि योजनया पूर्वरूढिवादिव्यवस्थायाः सम्यक् परिवर्तनं कृतम्। प्रधानमन्त्री प्रसिद्ध लोकगायिकायै शारदासिन्हायै श्रद्धाञ्जलिञ्च अर्पितवान्। महाराष्ट्रे मतदातॄणां समर्थनं प्राप्तुं विभिन्नाः राजनैतिकदलाः तीव्रप्रयत्नशीलाः सन्ति। राजनैतिकप्रचाराः च चरमसीमायां वर्तते। भाजपावरिष्ठनेता तथा केन्द्रीयमन्त्री अमितशाहः धूलमण्डलस्य सिन्धखेडायां सभां सम्बोधयन् महाराष्ट्रे सत्ताधारी महायुतिगठबन्धनं पुनः सत्तां प्राप्स्यति इति पुनः पुष्टिं कृतवान्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूस् आन् एआईआर् चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मूवर्यया प्रोक्तं यत् पर्यटनस्य विकासेन च न केवलम् अस्माकम् ऐतिहासिकस्मारकाणां प्रचारः भवति अपितु युवानां कृते विशाल उद्योगानाम् अवसराः अपि सृज्यन्ते इति। दादरा नगर हवेली दमन दीव केन्द्रशासित प्रदेशयोः त्रिदिवसीय भ्रमणं कुर्वति राष्ट्रपतिः अद्य तत्र विविध विकास परियोजनानाम् उद्घाटनं कृतवती। सभां सम्बोधयन् राष्ट्रपतिः क्षेत्रस्य पर्यटन शिक्षा औद्योगिक विकासे च केन्द्रशासित क्षेत्र दमन दीव दादरा नगर हवेली प्रशासनयोः प्रयत्नानां प्रशंसाम् अपि कृतवती। राष्ट्रपतिः विकसित भारतस्य लक्ष्यं प्राप्तुं ग्राम विकासे अपि बलं दत्तवती। राष्ट्रपतिः आदिवासी समुदायस्य कल्याणाय केन्द्र सर्वकारस्य प्रतिबद्धतायाः अपि पुनः पुष्टिं कृतवती।
केंद्र सरकार और संघ राज्य क्षेत्रों के प्रशासन द्वारा यहाँ पर्यटन के विस्तार के लिए अनेक प्रयास किए जा रहे हैं। कई जगहों का नवीनीकरण किया गया है। मैं पर्यटन को बढ़ावा देने के लिए किए जा रहे कार्य की सराहना करती हूँ। पर्यटन में विस्तार से रोजगार की नई संभावनाओं का सृजन होता है।
पूर्वं राष्ट्रपतिः सिल्वासा नगरस्य नामो इति चिकित्सा शिक्षा संशोधन संस्थायाः अपि भ्रमणं कृतवती। अनन्तरं राष्ट्रपतिः दियू क्षेत्रस्य आईएनएस खुकरी स्मारकस्य दर्शनमपि करिष्यति। भारतस्य सर्वोच्चन्यायालयेन निर्णयः कृतः यत् कार्यपालिका व्यक्तीनां सम्पत्तिं ध्वस्तं कृत्वा अपराधनिर्धारणे न्यायपालिकारूपेण कार्यं कर्तुं नैव शक्नोति। अभियुक्त व्यक्तिस्य विरुद्धम् अधिकारिभिः बुल्डोजर कार्याणि इति विरुध्य विचारणावसरे एकस्मिन् महत्वपूर्ण निर्णये न्यायालयेन उक्तं यत् याचनासु समुचित प्राधिकरणं विना कोऽपि विध्वंसः स्वेच्छाचरणम् इति गण्यते। सर्वोच्चन्यायालयेन उक्तं यत् पूर्वं कारणप्रदर्शनसूचनां विना कोऽपि ध्वंसः न भवेत्। अमेरिकी राष्ट्रपति निर्वाचितः डोनाल्ड ट्रम्पः नूतनस्य सर्वकारीय दक्षता विभागस्य स्थापनायाः घोषणं कृतवान्, यस्य नेतृत्वं टेस्ला संस्थायाः मुख्य कार्यकारी अधिकारी एलोन मस्कः, उद्यमी विवेक रामस्वामी च करिष्यतः। भारतीय ऋतुविज्ञान विभागेन सूचितं यत् दिल्ली एनसीआर इति राष्ट्रिय राजधानी प्रदेशः हिमधूमस्य घनस्तरेण अद्य व्याप्तः आसीत्। भारतीय ऋतुविज्ञान विभागानुसारम् अद्य प्रातः दिल्ली प्रदेशस्य अनेकेषु भागेषु अतीव सघनधूमिकायाः स्थितिः दृष्टा, येन कारणेन नवदिल्लीनगरस्य इन्दिरागान्धी अन्ताराष्ट्रिय विमानस्थानके नैकेषां विमानयानानां विलम्बस्य सूचनाः अपि प्राप्ताः। क्रीडावार्तासु बैडमिंटन क्रीडायां पीवी सिन्धुः जापानदेशे कुमामोटो मास्टर्स इति प्रतियोगितायां महिलानाम् एकलपक्षस्य 16तमे चक्रे प्रविष्टवती। 20-प्रतिविंशति क्रिकेट स्पर्धायाम् अद्य भारतं दक्षिणाफ्रिकादलं विरुध्य तृतीयचक्रं खेलिष्यति इति वार्ताः।